इयम् आकाशवाणी। सम्प्रति वार्ताः श्रूयन्ताम्। प्रवाचकः कृष्णप्रसादोपाध्यायः। प्रधानमन्त्रिणा नरेन्द्रमोदिना दृढरूपेण प्रतिपादितं यत् देशे विगत एकादशवर्षेषु विविधक्षेत्रेषु द्रुतगत्या परिवर्तनम् अभवदिति। एतच्च एकशतचतुर्विंशतिकोटिभारतीयानां सामूहिकसहभागित्वेन प्रेरितमस्ति। यदा केन्द्रस्य NDA सर्वकारस्य कार्यकालस्य एकादशवर्षाणि पूरितानि तदा सबका साथ, सबका विकास, सबका विश्वास, सबका प्रयास इति मार्गदर्शकसिद्धान्तानुसारं केन्द्रप्रशासनं द्रुतगत्या अधिकपरिमाणेन संवेदनशीलतया च पथप्रदर्शकानि परिष्काराणि अकरोदिति। केन्द्रीय वित्तमन्त्री निर्मलासीतारामनः अद्य नवदेहलीनगरे राष्ट्रिय निवेश आधारभूत संरचना कोष सीमिताख्यस्य परिषदः गवर्निंग काउंसिल इत्यस्य षष्ठ्याः सभायाः अध्यक्षतां कृतवती। सभायां वित्तमन्त्रिणा सह अन्ये च सदस्याः अपि प्रमुखमार्गदर्शनेति विषये चर्चां कृतवन्तः। गृहमंत्री अमित शाह अकथयत यत न्यूनतम प्रशासनस्य अधिकतम शासनमिति समीकरणेन देशे विकासस्य गतिः परिमाणञ्च परिवर्तितम्। ऑपरेशन सिंदूर इत्यस्यानन्तरं जम्मू कश्मीर प्रदेशस्य सीमाक्षेत्रेषु पाकिस्तानी गोलिकादिप्रहारैः क्षतिग्रस्तानां 2006 गृहाणां पुनारचनायै 25 कोटि रूप्यकाणां अतिरिक्तव्यवस्थां सर्वकारः कल्पयिष्यति इत्यपि तेन प्रोक्तम्। भारतीय रेल संस्थया मुंबईनगरस्य उपनगरीय रेलजालस्य सर्वेषु नूतनेषु कोचविशेषेषु स्वचालितद्वारपिधानव्यवस्था स्थापिता भविष्यति। केन्द्रीय कृषिमन्त्री शिवराज सिंह चौहानः अवदत् यत् कृषिक्षेत्रस्य विकासं विना देशः विकसितराष्ट्रं न भविष्यति। तेलङ्गानाराज्यस्य रङ्गारेड्डी मण्डले आयोजिते विकसित कृषि संकल्प अभियान कार्यक्रमे भाषमाणः श्री चौहानः खाद्यसुरक्षां साधयितुं कृषकाणाम् आयं वर्धयितुं तैलस्य रक्षणाय च बलम् अददात्।
फूड सिक्योरिटी सुनिश्चित करनी है, नंबर वन। नंबर टू, किसानों की आमदनी बढ़ानी है। नंबर तीन, न्यूट्रिशन फूड मिले इसकी कोशिश करनी है। और नंबर चार, किसान भाइयों, इस धरती को आने वाली पीढ़ियों के लिए भी बचा के रखना है, ऐसा ना कि सॉइल ही बीमार हो जाए हमारी। और इसलिए अभी हम लोग निकले हुए विकसित कृषि संकल्प अभियान पे।
सेंसेक्स इति सूचकाङ्कः क्रमानुसारेण चतुर्थं सत्रं यावत् अन्ववर्तत्, 400+ च समाप्तः। आगामि दिनद्वये पंजाब, हरियाणा, चण्डीगढ़, दिल्ली, उत्तरप्रदेशे, राजस्थानस्य पूर्वभागेषु च उष्णतरङ्गस्य स्थितिं प्रति भारतीय ऋतुविज्ञानविभागेन नारङ्गवर्णीय सूचना दत्तास्ति। सुप्रसिद्धः भारतीयः क्रिकेट क्रीडकः, पूर्वदलनायकश्च MS धोनी इत्येषः प्रतिष्ठितायाम् ICC हाल् आफ् फेम् इत्यस्मिन् सम्माने समावेशितोऽस्ति। अवसरोऽयं तस्य क्रिकेट क्रीडाजीवनस्य अन्यतमः गौरवपूर्णः अध्यायः अस्ति। अन्ताराष्ट्रिय क्रिकेट परिषद् अघोषयत् यत् अस्मिन् वर्षे सम्मानितेषु 7 क्रिकेट क्रीडकानां मध्ये धोनी अपि अस्ति, यस्मिन् आस्ट्रेलियादेशस्य मेथ्यू हेडन्, देशस्य हासिम आम्ला इत्यादयः महान् क्रिकेट क्रीडकाः सन्ति। पादकन्दुकक्रीडायां भारतस्य वरिष्ठपुरुषदलम् अद्य हाङ्काङ्ग् नगरस्य कैटॉक क्रीडाङ्गणे 27+2000 जायमानायाम् AFC एशियन कप क्वालिफायर इत्यस्य अन्तिमचक्रीयस्पर्धायां हाङ्काङ्ग् देशेन सह 7 क्रीडाङ्कैः स्पर्धते। क्रीडायाः आरम्भः भारतीयसमयानुगुणं सायं 5:30 भविष्यति इति वार्ताः।